ॐ सहनाववतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावतीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः ॐ श्रीगुरुभ्यो नमः
धन्यवादः भगिनि सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र विधिलिङ्गलकारः तत्र सम्भावनार्थे इति पूर्वम् अस्माभिः कृतम् इदानीं तत्र विध्यर्थे अपि तत्र आत्मनेपदी धातूनां तत्र लङ्लकारः अपि तत्र इदानीं तत्र पूर्वं परस्मैपदी धातूनां विधिलिङ्गलकारस्य अभ्यासं सर्वं पूर्वमेव जातम् इदानीं तत्र आत्मनेपदी धातूनां विधिलिङ्गलकारः लङ्लकारश्च इति अस्माकं प्रवर्तमानविषयः तस्मिन् विषये तत्र कोष्टकं पश्यामः तत्र 102-103 मध्ये तत्र कोष्टकम् अस्ति तत्र गतवर्गे अपि दृष्टवन्तः तत्र साम्यम् अस्ति तत्र विधिलिङ्गरूपाणि सन्ति तत्र आत्मनेपदी धातूनाम् अपि लङ् लकाररूपाणि सन्ति तत्र असाम्यं दृश्यते तत्र नाम तत्र वर्धेत इति यत् विधिलिङ्गलकारे अस्ति तत्र अवर्धत इति अस्ति अतः तत्र एकं रूपं जानीमश्चेत् तत्र विधिलिङ्गरूपं जानीमश्चेत् तत्र लङ्लकारस्य रूपस्य ऊहां कर्तुं शक्नुमः इति अस्तु तर्हि तत्र अतः किञ्चित् पुनस्मरणं कृत्वा तत्र अग्रे सरामः तत्र प्रायशः तत्र किं तत्र पेज् 104 मध्ये एव तत्र द्वितीय अभ्यासः तत्र एव करणीय आरम्भं कुर्मः इति मन्ये अस्तु तर्हि तत्र सूर्यकुमारी भगिनी तत्र कम्पते कम्पते इति तत्र लङ्लकाररूपाणि वदति वा भगिनि कम्पते
कम्पते आत्मनेपदी धातुः लङ्लकाररूपम् अकम्पत अकम्पेताम् अकपन्त
अकम्पत कम्पते इति अतः अकम्पत
अकम्पत अकम्पेताम् अकम्पन्त
समीचीनं अग्रे
मध्यमपुरुष अकम्पताः अकम्पेथाम् अकम्पध्वाम् उत्तमपुरुषः अकम्पते अकम्पतावहि अकम्पतामहि
अकम्पतामहि समीचीनम् इदानीं तत्र इदानीं विधिलिङ्गकारः
विधिलिङ्गकारः क्षम्यतां महोदय
चिन्ता मास्तु
कम्पेत कम्पेयातां कम्पेरन्
कम्पेरन् समीचीनं
मध्यमपुरुष कम्पेताः कम्पेयाथां कम्पेध्वम् उत्तमपुरुषः कम्पेय कम्पेयाथां
समीचीनम् अस्तु इदानीं तत्र रघुपतिमहोदय तत्र तयोः मध्ये तत्र साम्यं कुत्र अस्ति अपि साम्यं कुत्र नास्ति किञ्चित् वदति वा महोदय
महोदय तत्र एकवारं तयोः मध्ये भिन्नता अस्ति अकार अडागम सर्वत्र अस्ति
तत्र लङ्लकारे अडागम सर्वत्र अस्ति
तत्र अपि च एत्वं लभेयलिङ्गकारे
सर्वत्र मध्ये एत्वं अस्ति
मध्ये एत्वम् अस्ति अपि च यकार श्रूयते सर्वत्र विधिलिङ्गकारे एकारं लभेत यकारः श्रूयते सर्वत्र नास्ति परन्तु प्रथम मध्यमपुरुष बहु द्विवचने अस्ति
समीचीनं. तत्र प्रथमपुरुषे मध्यमपुरुषे
साम्यम् अस्ति. साम्यमस्ति वहि महि इत्यस्मिन् अस्ति. उत्तमपुरुषे वहि महि इति, तत्रापि अत्रापि वहि महि इति अस्ति.
इति एव अस्ति. समीचीनं महोदय. अपि तत्र यत्र यकारः तत्र आगच्छति तत्र विधिलिङ्गकारे, तस्मिन्नेव स्थाने तत्र लङ्लकारे किं भवति?
अत्र यकारः नास्ति, लङ्कारस्ति खलु.
किन्तु यत्र विधिलिङ्गकारे यकारस्य रूपं दृश्यते, तत् नाम तत्र प्रथमपुरुषे द्विवचने तत्र यकारः अस्ति. इदानीं लङ्लकारे प्रथमपुरुषे द्विवचने रूपं कीदृशं भवति तत्र? नाम अवर्धत अवर्धेताम्
अवर्धेताम्
नाम अतः तत्र एकारः श्रूयते खलु.
आमाम् आमाम्.
तत्र यत्र विधिलिङ्गकारे परिवर्तनं, तत्र तस्मिन्नेव स्थाने तत्र लङ्लकारे अपि परिवर्तनं. यकारः यत्र अस्ति तत्र प्रथमपुरुषे द्विवचने, मध्यमपुरुषे द्विवचने, अपि उत्तमपुरुषे एकवचने, तस्मिन्नेव स्थाने तेषु स्थानेषु तत्र लङ्लकारे अपि तत्र एकारः
अस्ति.
अपि भिन्न भिन्नता कुत्र अस्ति महोदय?
भिन्नता अस्ति, इकार न श्रूयते. इकार न श्रूयते किमस्ति तत्र सर्वत्र, सोरि, एकार न श्रूयते लङ्लकारे.
लङ्लकारे केवलं तत्र त्रिषु
समीचीनं. मध्यम उत्तमपुरुषे एकवचने, अपि च प्रथम मध्यम बहु द्विवचने अस्ति एकारस्य.
समीचीनं.
अन्यत्र नास्ति, परन्तु विधिलिङ्गकारे सर्वत्र एत्वम् एकारः अस्ति. एकारः भवति इति अस्ति.
अपि तत्र प्रायशः तत्र यत्र भिन्न भिन्नता तत्र भिन्नतायाः तत्र किं बह्वी बहु अस्ति इति, बह्वी अस्ति इति उक्ते तत्र प्रायशः तत्र प्रथमपुरुषे बहुवचने प्रायशः तत्र
साम्यं नास्ति, किमपि नास्ति. रन् इति अस्ति अत्र, अन्त इति अस्ति अत्र, रन् इति अस्ति,
रन् इति अस्ति. तत्र तु साम्यम् अस्ति इति अपि न वक्तुमेव शक्नुमः. समीचीनं महोदय. अस्तु तर्हि, अस्तु अग्रे तत्र गीताञ्जलि भगिनी, इदानीं तत्र प्रायशः तत्र प्रथम अभ्यासं कृतवन्तः इति मन्ये भगिनी गतवर्गे, अतः तत्र इदानीं द्वितीय अभ्यासं कर्तुं शक्नुमः.
षष्ठसङ्ख्या महोदय.
तद् न कृतं वा भगिनि? अस्तु 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 तर्हि तत्र जायते इति
समाप्तं,
किन्तु षष्ठं न समाप्तम्. अस्तु, धन्यवादः भगिनि. अस्तु, गीताञ्जलि भगिनी, इदानीं तत्र प्रथमाभ्यासः किन्तु षष्ठमबिन्दुः
जायते महोदय.
जायते.
दृष्ट्वा प्रयत्नं करोमि.
अस्तु भगिनि, अस्तु अस्तु. विधिलिङ्गकारः
विधिलिङ्ग् अस्ति चेत्
षष्ठः अभ्यासः, षष्ठः बिन्दुः इति वक्तव्यमासीत्, मम दोषः. क्षम्यतां भगिनी, वदतु.
अत्र तु जायेत, जायेयातां, जायेरन्, जायेताः,
जायेताः. समीचीनं.
जायेताः, जायेयाथां,
जायेध्वम् एकारः जायेध्वम्
सर्वदा भवति. अस्तु, उत्तमपुरुष जायेम,
न न जायेय यकारः यत्
हा क्षम्यतां महोदय जायेय
समीचीनं
तत्तु विस्मरामि महोदय जायेय क्षम्यताम्
जायेय तदनन्तरं जाये वहि जाये महि समीचीनं भगिनि अस्तु अतः इदानीं तत्र अग्रे गच्छतु
अस्तु द्वितीय अभ्यासः एतेषु वाक्येषु प्रयुक्तानां लट् लकाराणां स्थाने लङ् लकाररूपाणि उपयुज्य वाक्यानि पुनः लिखत यथा छात्राः संस्कृतेन भाषन्ते छात्राः संस्कृतेन अभाषन्त अत्र छात्राः इति कर्तृपदं बहुवचनम् अस्ति चेत् अभाषन्त अपि बहुवचनरूपम् आयाति अस्तु त्वं लज्जसे त्वं लज्जसे अस्तु त्वम् इति तु द्वितीय मध्यमपुरुष एकवचनरूपं रूपं त्वं अलज्जत तु न अलज्जताः त्वम् अलज्जताः इति एव महोदय एकवारं वदामि महोदय त्वम् अलज्जताः युवाम् अलज्जथाम्
तत्र एकारः तत्र प्रथमपुरुषे मध्यमपुरुषे द्विवचने अपि उत्तमपुरुषे एकवचने एकारः
अलज्जेथाम् अलज्जेथाम् यूयम् अलज्जध्वम्
इति समीचीनं भगिनि समीचीनम् अस्तु अग्रिमपि करोतु
असतः भावः न विद्यते असतः भावः न विद्यते अधुना असतः भावः विद्यते
अविद्यत अविद्यत समीचीनं तत्र कर्तृपदं किम् अस्ति अस्मिन् वाक्ये
भावः
भावः अपि असतः
असतः विशेषणरूपं कीदृशभावः असतः भावः
किन्तु असतः इति पदस्य विभक्ति का
प्रथम एकवचन न महोदय
तत्र भगिनि तत्र वदतु महोदय रघुपति महोदय वदतु
सत् तत्र
अतः तत्र अस्धातोः शत्रन्तरूपं सत् इति अस्ति सन् इति प्रथमविभक्तौ असत् इति तत्र अकारस्य इदानीं तत्र उपसर्गः अतः असन् किन्तु प्रथमविभक्तौ किन्तु असत् इति प्रातिपदिकम् असतः इति विभक्तिका षष्ठी एकवचनं कस्य भावः
तत्र अपि च असतः इति असत् इति मिथ्या इति तदपि भवितुमर्हति खलु असतः इति
सत्यं महोदय किन्तु तदेव नाम तत्र असत् इत्युक्ते तत्र मिथ्यम् इति न नास्ति इति अर्थः यत् अभावः तत्र असतः असतः यद् नास्ति इति
विशेषणरूपं न भवितुमर्हति तत्र
नास्ति भगिनि यतोहि तत्र भावः अस्ति चेत् तत्र प्रश्नः कः कस्य
भवतः
ओ भाव इत्युक्ते सर्वदा षष्टि एव आयाति तत्र
इति न किन्तु तत्र अस्मिन् वाक्ये तत्र भावः इति अस्ति तत्र कीदृशभावः इति प्रश्नं भवितुम् अर्हति किन्तु अत्र असतः असतः इति नाम तत्र असत् यदस्ति तस्य भावः तत्र सत्यं तत्र यदि सत्यम् असत्यम् इति आसीत् चेत् तत्र असत्यस्य भावः इति प्रायशः भवेत्. न असत्य असत्यस्य नाम यद् सत्यं नास्ति, सत्यम् असत्यं मिथ्यम् इति मिथ्यस्य भावः इति. किन्तु अत्र असतः इति एव अस्ति.
असत्यस्य तु सामान्य षष्ठी, किन्तु असतः तु शतरन्त षष्ठी.
हा इति नाम असत् इति प्रातिपदिकम्, असन् इति प्रथमविभक्तिरूपं, यथा तत्र सत् सन् सन्तौ सन्तः इति अस्ति खलु.
अत्र समीचीनं महोदय. किमर्थं
शत्रन्तं तत्र न नाम तत्र यत् नास्ति इति खलु, तद् नासीत् इति न, इदानीमपि नास्ति खलु. तत्र अस् धातोः यद् अस्ति केवलं तस्मिन् क्षणे अस्ति इति अस्तु, तत्र सः अस्ति अथवा तस्मिन् क्षणे सः आसीत्. किन्तु इदानीं किं वक्तुम् इच्छामः, एतद् अस्ति तस्य शतन्त्रूपम् अस्मिन् क्षणे अपि अस्ति, सः अस्ति अपि अन्यत् किमपि कुर्वन् अस्ति चेत् तत्र किं रूपं भवति? सः अस्ति अपि करोति, तत्र शतन्त्रूपं किं भवति? तत्र सः विपरीतं त्यजामः. तत्र असत् शतन्त्रूपम् अस्ति, शतन्त्रूपं किमर्थम् इत्युक्ते तद् सर्वदा असत्यमेव अस्ति खलु. तत्र कुर्वन् अस्ति इति नाम तत्र केवलम् एकक्षणस यदि कृतवान्, यदि एकक्षणमेव सः करोति तत्र किं भवति? सः कृतवान् इति रूपं खलु. किन्तु तत् असत्यम् इति एव भवति, अतः तत्र असन् इति तत्र शतन्त्ररूपं स्वीकृतं. किन्तु हा प्रायशः अन्यत् कारणमपि भवेत्, किन्तु रूपं तु असत् इति अस्ति, असतः इति तस्य षष्ठी.
अस्तु अस्तु, एवमेव द्वितीय एवमेव क्रियापदमपि अस्ति तत्र वाक्ये.
असतः षष्ठी कर्तृपदं भावः विद्यते, विद्यते तु अकर्मकक्रियापदम्, अतः तत्र अविद्यत इति.
भगवद्गीतायाम् अस्मिन् श्लोकः अस्ति
सत्यं, वदतु भगिनि तस्मिन् विषये.
नासतो विद्यते भावः, नाभावो विद्यते सतः, उभयोरपि दृष्टोऽन्धः, त्वनयोस्तत्त्वदर्शिभिः.
अस्तु समीचीनं, धन्यवादः भगिनि. कस्मिन् संख्या का अस्ति?
षोडश.
धन्यवादः भगिनि. अस्तु धन्यवादः, समीचीनं. नरेश महोदय नमस्कारः.
नमस्कारः महोदय, क्षम्यतां.
चिन्ता मास्तु.
हरि ओं महोदय, नमस्कारः.
ओ अस्तु, अतः तत्र अहम् अस्तु धन्यवादः. नमस्कारः महोदय, नमस्कारः. पुटसङ्ख्या अस्ति 104. अस्तु इदानीं तर्हि तत्र अस्तु नरेश महोदय, इदानीं तत्र अग्रिमं करोति वा तृतीयं?
मनसः न गृहं सुदुष्करं मन्ये. मनसः न गृहं
सुदुष्करं मन्ये. इदानीं तत्र लङ्लकारं रूपम् आवश्यकं.
मन्ये तु उत्तमपुरुष एकवचनम् अस्ति. लङ्लकारे अमन्ये
एव समीचीनं, तत्र केवलम् अकारस्य योजनं तावदेव. अतः मनसः
निग्रहं सुदुष्करम् अमन्ये
इति समीचीनं. तत्र कर्तृपदं किम् अस्ति?
निग्रहं.
भवान् उक्तवान् तत्र पुरुषः कः इति, मन्ये इति रूपस्य
मन्ये उत्तमपुरुषः.
अतः कर्तृपदम्
अहम्.
अहं मन्ये, इदानीं तत्र अहम् अमन्ये. अतः अहमेव कर्तृपदम्। इदानीम् अहं किं मन्ये इत्युक्ते तत्र अहं निग्रहं सुदुष्करं सुदुष्करं मन्ये। समीचीनम्। अतः तत्र निग्रहं कर्मपदं भवति, सुदुष्करम् इति तस्य विशेषणम्। तत्र केवलं दुष्करम् इति अपि वक्तुं शक्नुमः, किन्तु तत्र बहु इति अर्थे तत्र सुदुष्करम् इति एम्फसिस् अस्ति अत्र, तत्र सुदुष्करं, सुलभः नास्ति, बहु कठिनम् अस्ति इति अतः इति। अस्तु, समीचीनम्। अग्रे महोदय।
अग्रे श्रद्धावान् ज्ञानं लभते, श्रद्धावान् ज्ञानं लभते, लभते तु प्रथमपुरुष एकवचनं, लङ्लकारे अस्ति अलभत्,
अलभत् न अलभत, तत्र परस्मैपदी धातूनम् इति भवति अपठत् इति, किन्तु अत्र अलभत,
अलभत्। श्रद्धावान् ज्ञानम् अलभत
हा इति। इदानीं तत्र कर्तृपदं कर्मपदं किं किं?
श्रद्धावान् कर्तृपदं, कर्मपदं ज्ञानम्,
ज्ञानम् इति। समीचीनं महोदय, धन्यवादः। अस्तु, अग्रे रघुवीरानन्दस्वामी अग्रिमे पुटे, इदानीं पञ्चम।
महोदय, त्वं प्रज्ञावादान् भाषसे, भाषसे महोदय,
तत्र लङ्लकाररूपाणि कानि? तत्र भाषते किं भवति? अभाषत, पेज् 102 मध्ये अस्ति महोदय, अधो भागे अस्ति लङ्लकार।
आत्मनेपदि वा?
आत्मनेपदि, सत्यं खलु, भाषसे।
तत्र
बन्नोटु मध्ये भाषसे इति नास्ति, किन्तु आत्मनेपदि धातूनां रूपाणि सन्ति खलु तत्र,
अवर्धत अवर्धे,
तत्र भाषते इति उपयुज्य वदतु महोदय, तत्र अभाषत,
अभाषत, अभाषताम्,
अभाषेताम्, अभाषेताम्, एकारः अस्ति मध्ये, द्विवचने अभाषेताम्,
अभाषेताम्, अभाषन्त, अभाषताः, अभाषेताम्, अभाषद्वम्, अभाषे, अभाषावहि, अभाषामहि।
इदानीं तत्र मध्यमपुरुषे एकवचने रूपं किम्?
अभाषताः
इति। समीचीनं महोदय। अतः अत्र वाक्यं किं भवति?
त्वं प्रज्ञावादान् अभाषत,
अभाषताः,
अभाषताः,
अभाषताः इति। समीचीनं। तत्र प्रज्ञावादान् इति अस्ति, तत्र कर्मपदं प्रज्ञावादाः, वादाः इति तत्र प्रथमविभक्तिरूपं, अकारान्तपदं बहुवचनम्। अस्तु, समीचीनम्। अग्रिमं महोदय।
युवाम् एतं हतं मन्येथे, युवाम् एतं हतं,
तत्र मन्यते, तत्र
अमन्येथाम्।
समीचीनं महोदय, अमन्येथा, तत्र अमन्येथाम् इति। समीचीनं महोदय। समीचीनमेव, तत्र मन्येथे इति एव अस्ति, मन्येथाम् इति। समीचीनं। अमन्येताम् युवाम् एतं हतम् अमन्येताम्, तत्र कर्तृपदं कर्मपदं किं किं महोदय?
युवाम् इति कर्तृपदं महोदय,
कर्तृपदं। समीचीनं। कर्मपदं?
कर्मपदं तु एतं,
हा एतं तत्र कर्मपदस्य विशेषणम् अस्ति वा
हतम्
हा एषः हतः तद् भवति एतं हतं समीचीनं महोदय हा
महोदय हतं कर्मपदम् अस्ति
न न एतम् एतं हा एषः हतः एषः हतः सत्यं सत्यं हा तत्र
हतं कर्मपदं विशेषणम् एतम् इति खलु
हा हा अस्तु 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 तदपि तदपि प्रायशः कर्तुम् अस्तु 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 अतः तत्र हतः इति तत्र विशेषम् अपि हा एषः इति विशेषणम् अस्तु समीचीनं धन्यवादः अस्तु अग्रे तत्र हा लक्ष्मी भगिनी अग्रे लक्ष्मी भगिनी अस्तु सूर्यकुमारी भगिनी
महोदय अवीक्षन्त सर्वे विस्मिताः त्वाम् अवीक्षन्त
मम ध्वनिः श्रूयते वा
हा इदानीं श्रूयते भगिनि इदानीं श्रूयते हा एकनिमिषे तत्र सूर्यकुमारी भगिनी करोति तदनन्तरं भवती करोतु इदानीं श्रूयते भगिनि हा समीचीनं
क्रियापदं लट्लकारे वीक्षन्ते वीक्षते बहुवचनम् अस्ति सर्वे विस्मिताः त्वाम् अवीक्षन्त
हा अवीक्षन्त समीचीनम् इतर तत्र कर्तृपदं किं कर्मपदं किम्
त्वां कर्मपदं
हा समीचीनं त्वां कर्मपदम् अपि कर्तृपदं
सर्वे विस्मिताः
सर्वे
विशेषणमस्ति
विशेषणं समीचीनं भगिनि अस्तु अग्रे
यूयं श्रद्धयान्विताः यजध्वे यजध्वे बहुवचनम् अस्ति मध्यमपुरुष यूयं बहुवचनं श्रद्धयान्विताः बहुवचनम् अयुज्यध्वम् लङ्लकार यजध्वे अजयध्वं
न जयध्वं न समीचीनम् अयजध्वं समीचीनं यूयं श्रद्धयान्विताः अयजध्वं तत्र श्रद्धयान्विताः इति किं भवति
श्रद्धयान्विताः कर्तृपदं विशेषणं
विशेषणम् अस्तु तद् अस्तु समीचीनं भगिनि अस्तु हा इदानीं तत्र लक्ष्मी भगिनी अग्रे धन्यवादः भगिनी सूर्यकुमारी
वयं वयं घोरं तपामहे वयं मध्यम उत्तमपुरुष बहुवचनं तपामहे लङ्लकाररूपम् अतपामहि
हा अतपामहि समीचीनं वयं घोरम् अतपामहि हा तत्र कर्मपदं किम् अस्ति
घोरं
घोरम् इति समीचीनं हा अग्रे
आवाम् ईश्वरं भजावहे भजावहे आवां द्विवचनं आवाम् ईश्वरम् अभजावहि
अभजावहि समीचीनं भगिनि हा तत्र भजावहे इति अस्ति तत्र झा अनन्तरं दीर्घाकारः एव अस्ति तत् तिष्ठति किन्तु वहे इति स्थाने एकारस्थाने इकारः तावदेव तत्र अभजावहि इति समीचीनं भगिनि हा अस्तु अग्रे रघुपति महोदय
आं महोदय सर्वे अपि स्वकर्म कुर्वते इति अस्ति सर्वे अपि स्वकर्म अकुर्वत
हा तत्र
अन्ति अन्त् कुर्वते इति अत्र कुर्वन्ते नास्ति अत्र अत् इति अत् इति अस्ति वा
तत्र कुरुते इति कुरुते
कुरुते कुर्वते कुर्वते कुरुते कुर्वते कुर्वते इति खलु महोदय अत् 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 अस्ति तत्र कृदातु अतः कृत् अत् अन्ते नास्ति अन्त आदेशः नास्ति प्रायः तत्र भिन्नमस्ति अतः अत् अतः कुर्व अत इति भवति अन्त अस्ति चेत् अन्त इति कुर्वन्त इति भवेत् कुर्वन्त न कुर्वत वा कुर्वत एव
तत्र
कृदातु खलु
कृदातुः तत्र
आत्मनेपदीरूपम्
आत्मनेपदीरूपं हा तत्र न स्मरामि तत्र अन्य कोऽपि स्मरति वा तत्र किम् अस्ति इति केवलम् अकुरुत इति वा अस्तु
अहं पश्यामि पश्यन् वदामि
धन्यवादः पश्यन्ती वदामि अस्तु अस्तु हा अस्तु अस्तु कुरुते हा कुर्वाते कुर्वते इति अस्तु हा 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 अतः तत्र रूपं किमस्ति अकुर्वत इति वा
न न न लङ् आत्मनेपदी क्रूधातु लङ् अस्ति अकुरुत अकुर्वताम् अकुर्वत
अकुर्वत
अत एव अस्ति महोदय तत्र अत् एव अत अत एव न तु अन्त्
अन्त् हा अस्तु महोदय अस्तु अस्तु अतः तत्र अवर्धन्त इति स्थाने अवर्धत तत्र अकुर्वत अकुर्वत अस्तु अकुर्वत समीचीनं
भगिनी अनदन्त करोति खलु महोदय करोति इति अस्ति खलु प्रथमपुरुषे एकवचनम् अतः अनदन्त अङ्गस्य आत्मनेपदि अत इति आदेशः भवति आत्मनेपदेश अनतः इत्यनेन अत इति भवति
अस्तु
अनदन्ताङ्गम् अनत अरोचन्त इति भवति अरोचत् अरोचते खलु अत्र अकार अस्ति ते पूर्वम् अत्र अदन्ताङ्गमस्ति चेत् अन्त अनदन्ताङ्गस्य अत इति सर्वदा
अस्तु महोदय सत्यं हा
अतः अत इति एव
अतः तत्र वयं सामान्यरूपं तत्र स्मरामः तत्र विशेषरूपं न स्मरामः इति यद् प्रथमगणे अस्ति तद् सुलभतया मनसि तिष्ठति
अतः किञ्चित् यदा अहं तत्र प्रथमपुरुष लट् लकार एकवचनरूपं स्मरामः चेत् तद् भवति किमस्ति तत्र प्रत्ययात् पूर्वम् अकार अस्ति वा इति अकार अस्ति चेत् सामान्यरूपं नास्ति चेत् भिन्नरूपं भवति इति करोति इति अस्ति खलु अतः तत् सुलभं भवति सुलभः भवति अस्माकं कृते
किन्तु तत्र आत्मनेपदी धातुः अस्ति खलु महोदय
अतः आत्मनेपदेषु अत अनतः इति आत्मनेपदेषु
उकारः अस्ति इति स्मर्तव्यं वा अत्र
न न करो न न प्रथमं सर्वेषां लट् लकार प्रथमपुरुषे एकवचनं द्रष्टव्यम् अदन्ताङ्गम् अस्ति वा इति करोति इति खलु करोति इति अस्ति
न न किन्तु इदानीं तत्र आत्मनेपदि धातुः एव द्रष्टव्यं खलु तत्र एतत् उभयपदि धातुः अस्ति
न न अङ्गस्य अङ्ग आमाम् अतः कुरु इति खलु
अतः उकारः द्रष्टव्यं
उकारः द्रष्टव्यम्
उकारः अस्ति इति कृत्वा अस्तु अस्तु अस्तु
आमाम् अतः यत्र कुत्रापि एकं तु किमर्थम् आत्मनेपदेशि लङ्लकरस्य एव दष्टमिति नास्ति खलु लट्लकरस्य अपि भवितुमर्हति अत्र ज्ञातुं शक्नुमः सर्वे जानन्ति प्रथमपुरुषे एकवचनं सर्वे जानन्ति लङ्लकरस्य किञ्चित् क्लेशः भवति प्रथम लट्लकरस्य एव किञ्चित् मनसि भवेत् यत्र कुत्रापि अन्य लकाराणाम् अपि अदन्तङ्गम अनदन्तङ्गम इति द्रष्टुं शक्नुमः खलु
सत्यं महोदय
ज्ञातुं शक्नुमः
सत्यं चिन्तितवान्
तत् सुलभः सत्यं महोदय सुलभः भवति तदेव चिन्तयामि प्रथमं
सत्यम् अतः
स्वकर्म
अकुर्वत इति
अकुर्वत अकुर्वत इति स्वकर्म
सर्वे
सर्वे अपि स्वकर्म इति अत्र कर्मपदमस्ति न पुस्तकलिङ्गे अस्ति
अतः आत्मनेपदि एव खलु महोदय
आत्मनेपदि एव अतः एव अकुर्वत इति अस्ति नो चेत् तत्र परस्मैपदी आसीत् चेत् तत्र किं भवति
उभयपदी
न न परस्मैपदी धातुः अस्ति चेत् तत्र अकुर्वन् इति अकुर्वन् इति प्रायः अस्ति खलु अकुर्वत् अकरोत् अकुर्वन् इति अकुर्वन् इति किन्तु आत्मनेपदि दातु इति अतः एव तत्र मनसि नास्ति नासीत् अकुर्वत् अकुर्वत इति अस्तु अग्रे महोदय
अग्रे
मानवाः
मानवः देवम् अभ्यर्च्य सोरि
अभ्यर्च्य
सिद्धिं लभते मानवः देवम् अभ्यर्च्य सिद्धिम् अलभत
अलभत समीचीनम्
एकवचने अस्ति
मानवः अलभत किम् अलभत
सिद्धिम् अलभत कथं देवम् अभ्यर्च्य लेबन्तरूपमस्ति देवं कं अर्च्य कं कस्य अर्चनं कृत्वा इति देवस्य अर्चनं कृत्वा सिद्धिम् अलभत
अलभत समीचीनं महोदय अस्तु धन्यवादः अस्तु अग्रे गीताञ्जलि भगिनि
भवन्तः कृष्णं भजन्ते बहुवचनरूपम् भवन्तं कृष्णम् अभजन्त
अभजन्त समीचीनं भगिनि
अभजन्त आत्मकारणात् पचन्तः अघं भुञ्जते आत्मकारणात् पचन्तः अघं भुञ्जते इत्युक्ते भुञ्जते अपि एकवचनरूपम् अभुञ्जत
हा तत्र तत्र भुज् धातुः तत्र यथा तत्र पूर्वं तत्र क्रु धातुः प्रथमे गणे नासीत् खलु भगिनि अत्र भुज् धातुः तत्र भुज् इति तत्र भुञ्जते इति भुञ्जते इति ओ भुञ्जते इति तत्र प्रायशः तत्र भुञ्जते इति अस्ति खलु भगिनि किन्तु तत्र वचनं किम्
अत्र तु भुञ्जते तु एकवचनं
न महोदय न किन्तु तत्र किम् अस्ति पचन्तः इति अस्ति खलु कर्तृपदं किम् हा पचन्तः इति अस्ति तत्र पचन् पचन् इति पचति इति पदस्य शत्रन्तरूपं खलु
पचन्तः तु बहुवचनमायाति
हा अतः पचन् पचन्तौ पचन्तः पचन्तः अघं भुञ्जते नाम बहुवचनम् अतः तत्र
भुञ्जते बहुवचनं वा
हा
अस्तु
अतः तत्र ओ अस्तु तत्र अभुञ्जत इति एव अस्ति समीचीनं भगिनि अस्तु पुनः तत्र अकुर्वत इति तादृशमेव तत्र अभुञ्जत इति एव अस्ति
इत्युक्ते
लङ्लकरूपं सुलभमेव अभुञ्जत इति अस्ति भगिनि भुज् धातुः सप्तमे गणे अस्ति रुदादिगणे अस्ति
लट् तु भुनक्ति अस्ति
परस्मैपदी भुङ्क्ते इति आत्मनिपदी
अस्ति
एतत् उभयपदी एषः उभयपदी धातुः अस्ति
रुधादिगणे उभयपदी
अभुञ्जत इति रूपं भगिनि अतः तत्र वाक्यं वदतु
अत्र तु आत्मनेपदी भुङ्क्ते भुञ्जाते भुञ्जते अवगतं महोदय विस्मरामि अस्तु पञ्चतः अघं
न पचन्तः
ओ सोरि पचन्तः अघम् अधुना तु
अभुञ्जत तत्र अभुञ्जत इति अस्ति भगिनि
किञ्चित् क्लिष्ट जातः तत्र
सत्यं सत्यं सत्यम् अकुर्वत इति तादृशं तत्र विशेषरूपं हा अभुञ्जत इति हा
एकवारं पठामि महोदय
रूपाणि अस्तु अस्तु पठतु भगिनि
अस्ति चेत् आत्मनेपदी अभुङ्क्ता अभुञ्जाताम् अभुञ्जत अभुङ्क्थाः अभुञ्जाताम् अभुङ्ध्वम् अभुञ्जि अभुञ्ज्वहि अभुञ्ज्वहि
अतः तत्र एतत्तु मनसि न तिष्ठति खलु अस्तु समीचीनम् अस्तु
इत्युक्ते किञ्चित् किञ्चित् सावधानम् अपेक्षितं तत्र
सत्यं सत्यं हा सत्यं भगिनि हा
आत्मनेपदि बहुवचनरूपम् अस्ति यद्यपि किञ्चित् भुञ्जते
समीचीनं तत्र नकारः नासीत् तदेव तत्र बहुवचनरूपे तावदेव सत्यं महोदय अतः तत्र केवलं विधिलिङ्गकारः लङ्लकारः तत्र प्रथमगणे यदस्ति तद् मनसि स्थापयामः यद् यद् तद् भवति तदनन्तरम् अग्रे सरामः अस्तु अन्तिमवाक्यं करोतु भगिनि
मनुष्याः भगवतः वर्त्मा अनुवर्तन्ते अस्तु अधुनापि बहुवचनरूपम् अनुवर्तन्ते वर्तन्त वा
अनुवर्तन्ते तत्र वर्तते किं रूपं भवति
न अडागम आयाति सो अन्वा अस्ति
अन्वर्तन्त अन्वर्तन्त न न अन् अवर्तन्त अन्वर्त अस्तु भगिनि इदानीम् अन्ववर्तन्त इति हा
इत्युक्ते
वकारद्वयम् आयाति तत्र अतः अतः तत्र अन्व वर्तन्त
न किन्तु अकार न अस्ति तत्र इत्युक्ते वकार वकार
अन्ववर्तन्त इति भवति यणुसन्धि भवति खलु उकार अनु अवर्तन्त अन्ववर्तन्त
अन्ववर्तन्त
उत्तमं महोदय
अन्ववर्तन्त समीचीनम् इदानीं पूर्णं वाक्यं वदतु भगिनि
अस्तु मनुष्याः भगवतः वर्त्म अन्ववर्तन्त
अन्ववर्तन्त अस्तु समीचीनं तत्र कर्तृपदं किं कर्मपदं किं
हा तत्र तु कर्तृ तु मनुष्याः मनुष्याः एव कर्तृ इति मन्ये भगवतः
इति षष्टि
षष्टि अस्ति हा वर्त्म कर्मपदं तु नास्ति इत्युक्ते कर्मक अस्ति न महोदय
न न अनुवर्तन्ते अनुवर्तते इति तत्र अनुसरति इति अर्थः खलु
वर्त्म ईदृशपदं महोदय
वर्तमन् इति करन्दपदं मार्गः मार्गः
वर्तमन्
वर्तमन् नकारं हलन्तपदं किन्तु प्रथमविभक्तिः अस्ति वर्तम इति द्वितीयविभक्तिः अपि तत्र वर्तम इति अस्ति अतः तत्र नपुंसकलिङ्गपदं अतः तत्र
अधुना मनुष्याः तु कर्त्र बहुवचन भगवतः तु षष्ठी एव वर्त्म कर्मपदम्
तत्र वर्त्म इति स्थाने मार्गम् इति स्थापयितुं शक्नुमः भगवतः मार्गम् अनुवर्तन्ते अथवा अन्ववर्तन्त इति भवति समीचीनं अस्तु अग्रे नरेश महोदय
अधः दत्तानि वाक्यानि परिशीलयत, तेषाम् इतरवचनयुक्तानि वाक्यानि रचयत.
इतर इत्युक्ते किम्?
इतर इतर किमस्ति न
जानामि. अन्य तावदेव. इतर नाम अन्यः. तत्र एकं वचनं दत्तमस्ति, अन्यत् तत्र वचनस्य अन्यस्य वचनस्य तत्र रूपाणि स्थापनीयं तावदेव.
उदाहरणम् अस्ति, सः अभाषत, तौ अभाषेताम्, ते अभाषन्त, वयम् अवन्दामहि. अवन्दामहि उत्तमपुरुष बहुवचनम्, उत्तमपुरुषः एकवचनम्, अहम् अवन्दे.
अहम् अवन्दे
द्विवचनम्, आवाम् अवन्दावहि.
वयम् अवन्दामहि. समीचीनम्. अस्तु अग्रिमम्.
युवकौ अकम्पेताम्. युवकौ अकम्पेताम् अत्र तु प्रथमपुरुषः द्विवचनम्, अकम्पेताम् प्रथमपुरुष एकवचनम्, युवकः युवकः अकम्पते न अकम्पत.
एकारः नास्ति. समीचीनं. युवकः अकम्पत. समीचीनं. युवकः अकम्पत, युवकौ अकम्पेताम्, इदानीं
युवकाः अकम्पन्त.
अकम्पन्त इति समीचीनं महोदय. अस्तु अग्रे रघुवीरनन्दस्वामी अग्रिमम्.
आं महोदय, त्वम् असहताः. त्वम् असहताः इति मध्यमपुरुष एकवचनं. युवाम् असहेताम्, यूयम् असहध्वम्.
असहध्वं समीचीनं. यूयम् असहध्वं समीचीनम्. अग्रिमं महोदय.
बालिकाः अवर्धन्त. बहुवचनमस्ति महोदय. बालिकौ अवर्धेताम्.
न न
बालिका
ओ ओ न न
बालिके
बालिके महोदय. स्त्रीलिङ्गे स्त्रीलिङ्गे.
बालिके अवर्धेताम्, बालिका अवर्धत.
समीचीनं. समीचीनं महोदय, धन्यवादः. अस्तु अग्रे तत्र सूर्यकुमारी भगिनी अग्रे.
युवाम् अशोभेताम्, युवाम् अशोभेताम् एकवचनं, त्वम् अशोभेताः.
एकार नास्ति खलु भगिनि तत्र युवाम् इति.
अशोभताः.
त्वम् अशोभताः.
युवाम् अशोभेताम्, यूयम् अशोभेध्वम्.
अशोभध्वम्.
अशोभध्वम् एकार नास्ति.
एकार केवलं तत्र
द्विवचने अस्ति.
इति समीचीनं भगिनि. अस्तु.
अहम् एक्षे.
तत्र किञ्चित् प्रायः काठिन्यम् अस्ति भगिनि. तत्र एक्षे इति तत्र ऐक्षे ऐक्षे इति तत्र किम् अस्ति तत्र
ऐक्षे
तत्र उपसर्गः अस्ति वा तत्र
योगः
समीचीनम्, हा आयोगः ईक्ष धातुः, समीचीनं भगिनि, हा
ऐक्ष वृद्धिसन्धि भवति ऐक्ष,
हा हा इदानीं तत्र ईक्ष धातुः अस्ति चेत् तत्र किं भवति, ईक्ष धातुः तत्र ईक्षते इति भवति,
ऐक्षे ऐक्षे वहि ऐक्षे वहि ऐक्षे महि
एकर एस्तं नास्ति ऐक्षे ऐक्षा वहि ऐक्षा महि इति भवति,
हा ऐक्षा वहि तत्र भगिनी एकनिमिष, तत्र अहम् ऐक्षे इति अस्ति, तत्तु तत्र लकारः कः ऐक्षे इति
लण्लकारे एकवचनं,
न न न न लट्लकारे एकवचनम् अस्ति, ओ क्षम्यतां
क्षम्यतां,
मम दोषः, ईक्षेव दातुः तत्र उपसर्गः नास्ति, क्षम्यताम्, अहं चिन्तितवान् लट्लकाररूपं दत्तमस्ति, हा 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 अहम् ऐक्षे सत्यं सत्यं सत्यं, किन्तु अहं चिन्तितवान् तत् उपसर्गः अकारः उपसर्गः इति चिन्तितवान् तत्र लट्लकार इति चिन्तितवान्, समीचीनं भगिनि धन्यवादः, अतः तद् अहम् ऐक्षे, अहम् ऐक्षे आवाम् ऐक्षा बहि आवाम् ऐक्षा बहि
वयम् ऐक्षामहि,
हा ऐक्षामहि समीचीनं, हा अस्तु तत्र मम भ्रमः आसीत्, अस्तु धन्यवादः भगिनि, अस्तु इदानीं लक्ष्मी भगिनि,
हा अस्तु महोदय, यूयम् असेवध्वं यूयं मध्यमपुरुष बहुवचनरूपं, मध्यमपुरुष एकवचनं, त्वं असे असे असेवताः, द्विवचनं युवाम् असेवताः सेवेताम्,
युवाम् युवाम्
असेवेताम्,
हा तत्र से इति एकारः अस्ति अतः तत्र भ्रमः भवति, किन्तु समीचीनं भगिनि, अत्र युवाम् असेवेताम्
यूयम्
असेवध्वं, समीचीनं भगिनि, अग्रिमं
भवान् अलभद, भवान् लङ्लकारः एकवचनं प्रथमपुरुष एकवचनं, भवान् भवन्तौ अलभदाम्
अलभेताम् खलु,
अलभेताम् अलभेताम् भवन्तः अलभन्त
अलभन्त, समीचीनं भगिनि, हा अस्तु समीचीनम्, अस्तु अग्रे रघुपति महोदय,
हा महोदय आवाम् अमन्या वहि इति अस्ति अत्र उत्तमपुरुषे द्विवचने अस्ति अतः अहम् अहम् अमन्ये वयम् अमन्यामहि
अमन्यामहि, समीचीनं महोदय, अस्तु अग्रिमम्
अग्रे भवत्यः अरमन्त इति प्रथमपुरुष बहुवचनमस्ति, भवती अरमत भवती अरमत, भवत्यौ अरमेताम्
अरमेताम्, समीचीनं, भवत्यौ अरमेताम् भवत्यः अरमन्त, समीचीनं महोदय, अस्तु भवान् एव तत्र अग्रिमम् अभ्यासम् आरम्भं करोति वा,
अस्तु महोदय, अस्तु अधः दत्तानि वाक्यानि विधिलिङ्गवाक्यत्वेन परिवर्तयत, यथा छात्राः धार्मिकशिक्षां लभन्ते, छात्राः धार्मिकशिक्षां लभेरन् इति अस्ति, वयं राष्ट्रहिताय यतामहे इति अस्ति, तत्र वयं राष्ट्रहिताय यतामहि इति भवति, हा क्षम ईमहि खलु, क्षम्यताम् यतेमहि इति भवति,
समीचीनं महोदय, अस्तु
अस्तु
अस्तु,
यूयं कदापि न स्पर्धद्वे, अस्तु, यूयम् इति अस्ति अत्र, यूयं कदापि न स्पर्धेध्वं, स्पर्धद्वे स्पर्धेध्वम् ईध्वं
स्पर्धेध्वं, तत्र स्पर्ध हा तत्र स्पर्धेध्वं, यतोहि तत्र विधिलिङ्गकारस्य तत्र सर्वत्र एकारः तु भवति, हा स्पर्धेध्वं,
स्पर्धेध्वं,
स्पर्धेध्वं, स्पर्धेध्वं,
हा स्पर्धते खलु अतः स्पर्धेध्वं,
स्पर्धे, समीचीनं महोदय, हा धन्यवादः. अस्तु अग्रे गीताञ्जलि भगिनी.
आं महोदय, शत्रवः भीत्या पलायन्ते, बहुवचन शत्रवः भीत्या पलायन्ते, शत्रवः भीत्या अपला,
इदानीम् इदानीं लङ्लकारः नास्ति, विधिलिङ्लकारः,
क्षम्यतां महोदय, पलायेरन्,
हा पलायेरन्, समीचीनं भगिनि, हा पलायेरन्, हा अग्रिमं,
पलायेरन् इत्युक्ते एकवचन शत्रुः भीत्या
पलायेत,
पलायेत, एकं तु आयाति एव, पलायेत, शत्रुः पलायेत, शत्रु पलायेयातां,
पलायेयातां इति
यातां, तदनन्तरं शत्रवः पला
पलायेरन् पलायेरन्, समीचीनम्, इदानीम् अग्रिमं,
विजय, अत्र प्रिण्ट् नास्ति महोदय, किञ्चित्
त्वं परीक्षायां विजयसे इति,
अस्तु विजयसे, त्वं परीक्षायां विजयसे, त्वं परीक्षायां विजये ताः,
हा त्वं परीक्षायां विजये ताः,
त्वं युवां परीक्षायां विजयेयाथां, यूयं परीक्षायां विजयेध्वं,
विजयेध्वं, समीचीनं भगिनि, हा बहु समीचीनमस्ति, धन्यवादः. अस्तु अग्रे नरसिंहमहोदय.
अत्र गुणत्रयात्मकस्य आहारस्य आवलिः दत्ता अस्ति, तस्याः आधारेण सेव, भुज्, के, लभ इत्येतेषां धातूनां विधिलिङ्गरूपाणि योजयित्वा यथोदाहरणं वाक्यानि लिखत. सः आरोग्यवर्धनम् आहारं सेवेत. विधिलिङ्गकारः अस्ति. तौ प्रीतिवर्धनं भोजनं लभेयेताम्,
लभेयाताम्, लभेयाताम्,
लभेयाताम्,
हा तत्र कथं जानीमः महोदय, तत्र विधिलिङ्गकारः अस्ति इति, तत्र सेवेत, सेवेत इति अस्ति,
सेवेत अस्ति, लट्लकारः तु सेवते अस्ति, विधिलिङ्ग सेवेत अस्ति,
हा तत्र मध्ये एकारः अस्ति, समीचीनं महोदय, हा अत्रापि तत्र लभते इति अस्ति, किन्तु अत्र लभे इति अस्ति, अपि द्विवचने यकारः अपि आगच्छति, अतः तत्र लभे याथाम् इति, अस्तु समीचीनम्. अस्तु अग्रे, अहम्,
अहम्, अहम् अत्र उत्तमपुरुषः एकवचनम् अहं, किं
तत्र केवलं तत्र धातु तु तत्र सेव भुज् कृ लब् इति एव तत्र, अतः तत्र विकल्पः केवलं सेव भुज् कृ लब् इति. अपि यद् आहारं तत्र दत्तमस्ति तस् तद् उपयुज्य
अहं लवणं लभेय.
हा अस्तु, अहं लवणं लभेय इति समीचीनं भवति. अस्तु अग्रे. हा
सज्जनाः तीक्ष्णं सज्जनाः बहुवचनम् अस्ति. भुञ्जेरन्
हा तत्र हा हा अस्तु महोदय. एतत् हा तत्र भुञ्जीरन् इति अस्ति महोदय, समीचीनं. हा भुञ्जेरन् इति भुञ्जीरन् इति हा भुञ्जीरन् सज्जनाः. किं किं भुञ्जीरन् इति उक्तवान् वा महोदय तत्र किमपि तत्र तीक्ष्णं भुञ्जीरन् इति. अस्तु महोदय अस्तु. हा अग्रिमम्
अग्रं त्वं
तत्र वयं वयम् इति अस्ति. वयं वयम् इति अस्ति महोदय.
वयम् अस्ति. आम् वयम् आम्लः आम्लः क्रीधातु क्रीधातु किमस्ति क्रीधातु कुर्वामहि.
हा तत्र विधिलिङ्गकारः तत्र कुर्वीय इति अस्ति. तत्र कुर्वीय कुर्वीमहि कुर्वीमहि इति
कुर्वीमहि.
हा वयं कुर्वीमहि इति.
वयम् आम्लं कुर्वीमहि
कुर्वीमहि इति. हा आत्मनिपदि दातु तत्र हा कुर्वीमहि इति अस्ति. हा अस्तु समीचीनम्. अस्तु अग्रे तत्र रघुवीरानन्दस्वामी.
महोदय त्वम् इति अस्ति किमपि एकं
सत्यं महोदय. तत्र आहारस्य आवलिः अस्ति. तत्र गुणत्रयात्मकस्य आहारस्य आवलिः दत्ता अस्ति. तस्याः आधारेण तत्र केवलं सेव् धातुः भुज् धातुः कृ धातुः लब् धातुः
त्वं
तेषाम् उपयोगेन तत्र वाक्यं रचनीयं.
त्वं राजसम् आहारं मा महोदय विधिलिङ्ग् वा.
हा हा विधिलिङ्ग्
विधिलिङ्ग् एव भवेत् खलु.
मा
सेवेथाः
त्वं. हा अस्तु सेवेताः समीचीनं. हा त्वं राजसम् आहारं मा सेवेताः समीचीनं महोदय. अस्तु हा अग्रिमं
ताः त्रिलिङ्गबहुवचनं महोदय. तर्हि ताः पूति यातयामं भोजनं शीतलपेटिकायां मा भुञ्जीत.
तत्र ताः इति तत्र ताः
प्रायः महोदय मा भुञ्जीरन्.
हा भुञ्जीरन् अस्तु भुञ्जीरन् मा भुञ्जीरन्. हा समीचीनं महोदय. भुञ्जीरन् इति एव अस्ति तत्र भुज् धातुः भुञ्जीरन् इति. हा समीचीनं महोदय. हा
समीचीनं.
भुञ्जीरन् इति अस्ति भगिनि. हा ईकारः अस्ति भगिनि. हा तत्र साधारणरूपे एकारः अस्ति किन्तु अत्र विशेषरूपं तत्र प्रथमे गणे नास्ति अतः तत्र भुञ्जीरन् कुर्वीरन् तत्रापि ईकारः एव अस्ति. हा अस्तु अग्रे महोदय.
अग्रे युवां मध्यमपुरुष द्विवचनम् अस्ति. युवाम् अति कटुः न सात्विकः इति.
हा तत्र सात्विकं तत्र आहारं तदपि सात्विकम् आहारं
युवाम् आरोग्यवर्धनं भोजनं
तत्र कुर्वीरन् इति आसीत् इदानीं पश्यामः तत्र विधिलिङ्गकः तत्र तत्र तु युवाम् इति कुर्वीयाथाम् इति युवां युवां किम् उक्तवान् महोदय
आरोग्यवर्धनम्
आहारं भोजनं कुर्वीयाथाम् इति समीचीनं महोदय. हा अस्तु धन्यवादः. हा अग्रे लक्ष्मी भगिनी.
हा अस्तु महोदय. आवाम् आवां प्रीतिवर्धनं भोजनं
आवाम् इति अस्ति तत्र लब् सुलभं न आवाम् इति तु उत्तमपुरुष द्विवचनं
आवाम् भुञ्ज् भुज् धातुः अस्ति चेत् भुञ्जी वहि
वा समीचीनं भगिनि.
मा भुञ्जी वहि
मा इति वा किमर्थं
प्रीतिवर्धनं आहारं मा भुञ्जी वहि.
अस्तु अस्तु भगिनि. अस्तु किमर्थम् इति प्रश्नः अस्ति किन्तु अस्तु इदानीं मास्तु
मा वदतु.
भवितव्यं
अस्तु अस्तु भगिनि. अस्तु अग्रे अग्रिमं
जिह्वायाः प्रीतिवर्धनं मास्तु बुद्धिः.
हा हा केवलं जिह्वायाः प्रीतिवर्धनं मास्तु किन्तु अस्तु लक्ष्मी भगिनि अग्रे.
यूयं गतरसः आहारं न कृ धातुः अस्ति चेत्
कुर्वीध्वम् इति प्रायश अस्ति.
यूयं मध्यमपुरुष बहुवचनं
कुर्वीध्वं तत्र ए स्थाने ईकार अस्ति अतः कुर्वीध्वम् इति अग्रे भगिनि.
अनन्तरं सात्विक आहारं
तत्र सात्विकः सात्विकम् आहारं
सर्वे भुञ्जीरन्
न सात्विकः इति एव कर्तृपदम् एकवचने अस्ति.
ओ अस्तु सात्विक सात्विकः
सात्विकं भोजनं
सत्त्ववर्धनम् आहारं
सत्त्ववर्धनम् आहारं भुञ्जीरन्
न भुञ्जीरन् इति बहुवचने अस्ति
भुञ्जीत
वर्धेत इति एकारः तत्र भुञ्जीत इति ईकारः भुञ्जीत समीचीनं भगिनि. अस्तु अग्रे अस्तु करोतु भगिनि अग्रिमं. भवान्
पूतियुक्तः इत्युक्ते
उत्युक्त्वा तत्र प्रायश तत्र
यस्टर्डे पूतियुक्ता इत्युक्ते इट्स् आर् विच् इस् स्पाय्ल्ड्
तात्रयुक्तः तत्र गतरसः नाम तत्र यस् यत्र रसं गतं किन्तु तत्र
पूतियुक्तः आहारं
पूतियुक्तम् आहारं
पूतियुक्तम् आहारं
मा
सेवेत
सेवेत समीचीनं सेवते इति असेवेत समीचीनं भगिनि अस्तु अग्रे धन्यवादः भगिनि अस्तु अग्रे सूर्यकुमारी भगिनि
महोदय भवती भवती आम्ल आहारम् आम्लम्
आहारम्
आम्लम् आहारं लभेत
लभेत अस्तु अग्रे
एतौ द्विवचनं
अत्युष्णम् आहारम्
अत्युष्णम् आहारम् न सेवेयाताम्
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 द्विवचनं समीचीनम् एतौ अनुष्णम् अत्युष्णम् आहारं न असेवेयाताम् समीचीनं भगिनि अग्रे
भवन्तः कथम् आहारं भवन्तः कटुम् आहारं भुञ्जीरन्
भुञ्जीरन् न भुञ्जीरन् अस्तु न भुञ्जीरन् अस्तु अग्रे तौ इति
तौ तौ अपि द्विवचनं त्वौ
तौ तौ तौ
राजसं भोजनं राजसं भोजनं सेवेयाताम्
सेवेयाताम् अथवा लभेयाताम् अस्तु
लभेयाताम्
अथवा कुर्वीयाताम् अथवा भुञ्जीयाताम् समीचीनं भगिनि अस्तु तत्र तौ इति अस्तु इदानीं रघुपतिमहोदय अग्रे
अस्तु महोदय सा इति अस्ति अतः सा तीक्ष्णम् आहारं सेवेत तीक्ष्ण आहारं मा सेवेत अहम् अत्युष्णं भोजनं लभेय योगिनः सात्विकम् आहारं सेवेरन् इति वयं सुख अस्तु वयम् आरोग्यवर्धनं भोजनं लभेमहि इति
लभेमहि समीचीनं महोदय लभेमहि इति समीचीनं धन्यवादः महोदय अस्तु अग्रे रघुवीरन्दस्वामी अग्रिमपुटे तत्र सुभाषितमस्ति पठति वा महोदय
महोदय भुज्धातोः रूपाणि भुञ्जीत भुञ्जीयाता भुञ्जीरन् मध्यमपुरुषे भुञ्जीथाः भुञ्जीयाथां भुञ्जीध्वम् उत्तमपुरुषे भुञ्जीय भुञ्जी भुञ्जीवहि भुञ्जीमहि वा
हा सत्यं भगिनि तत्र प्रायशः तत्र यत्र एकारः अस्ति तस्मिन् स्थाने ईकारः अत्र अस्ति
अस्तु धन्यवादः
खलु तत्र वर्धेत वर्धे याथाम् इति स्थाने तत्र भुञ्जीत भुञ्जीयाथां भुञ्जीरन् हा इति सत्यं भगिनि हा हा हा
हा अस्तु धन्यवादः महोदय
धन्यवादः भगिनि हा अस्तु अग्रे रघुवीरेन्द्रस्वामी
आं महोदय
तत्सर्वं कृतं महोदय अग्रे इदानीं तत्र सुभाषितं
न न अहं
ओ तत्र भुज् धातोः रूपाणि अस्तु अस्तु अस्तु
महोदय एते सुभाषिते पठते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत् वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः मता पुरुषेषु गतः विषयः न चिन्तनीयः भविष्यतः विषयः अपि न चिन्तनीयं तेन वर्तमानकालविषये एव चिन्तनीयं व्यवहर्तव्यं च
तत्र कुर्वीत इति रूपं लकारः कः महोदय
विधिलिङ्ग् महोदय विधिलिङ्गकारः प्रथमा एकवचनं
हा गते शोकं न कुर्वीत
गते शोकं न कुर्वीत भविष्यं नैव चिन्तयेत्
न चिन्तयेत् तत्र चिन्तयेत् तत्र लट्लकारं किं भवति हा तत्र
लट्लकारं मा चिन्तय चिन्तयतु
हा तत्र चिन्तयेत् तत्र पठेत् पठति पठेत् हा चिन्तयति चिन्तयेत् हा समीचीनं तत्र चिन्तयेत् इति बीजलिङ्गकारः अस्ति किन्तु तत्र परस्मैपदे धातुः अस्ति अपि कुर्वीत इति तत्र विधिलिङ्गकारः अस्ति किन्तु तत्र धातु आत्मनेपदी धातु हा
समीचीनं
न कुर्युः कुर्वीत इति तु तत्र एकवचने
करोति कुर्वीत न कुर्वीत
कुर्वीत
कुर्यात् तर्हि कुर्यात्
कुर्यात् हा समीचीनं हा गते शोकं न कुर्वीत भविष्यं न एव चिन्तयेत् हा वर्तमानेषु कालेषु वर्तयन्ति विचक्षणाः तत्र विचक्षणाः इति कर्तृपदम् इति खलु महोदय
आं महोदय विचक्षणाः वर्तयन्ति कालेषु वर्तमानेषु वर्तन्ति
वर्तमानेषु कालेषु एव वर्तयन्ति सन्ति नाम अस्तु तेन तत्र
अतः भवान् अपि गते न कुर्वीत इति
शोकं न कुर्वीत भविष्यं
भवान् किमर्थं चिन्तयेत् किमर्थम् इति चेत् विचक्षणाः वर्तमानेषु एव वर्तयन्ति इति
अतः तत्र भवान् अपि तादृशमेव करोतु अपि अत्र तत्र विधिलिङ्गलकारस्य तत्र विध्यर्थे इति तत्र पूर्वं दृष्टवान् तत्र सम्भावने अपि भवितुमर्हति अपि विध्यर्थे विध्यर्थे यत्र भवति तत्र यदि कर्मणि रूपं कुर्मः तत्र अनियर् अथवा तद्
प्रत्ययत्
एव भवति अतः तत्र कुर्वीत इति तत्र न करणीयम् अथवा न अत्र न चिन्तनीयं तत्र चिन्तयेत् इति तत्र चिन्तनीयः गतः विषयः न चिन्तनीयः अपि भविष्यतः विषयमपि न चिन्तनीयम् इति भवति
तदन्तरूपमेव सरलमस्ति
हा सत्यं महोदय करणीयं तत् सुलभमस्ति अतः समानः कर्मणि उपयुज्य बुद्धिमता पुरुषेण तत्र रघुवीरेन्द्रस्वामी तत्र बुद्धिमता पुरुषेण इति तत्र विभक्ति का तत्र
महोदय तृतीया
हा प्रथमाविभक्ति विभक्तरूपं किं भवति
बुद्धिमत् महोदय तकार
हा प्रातिपदिकं तकारः हा प्रथमविभक्तौ
बुद्धिमान् बुद्धिमन्तः बुद्धिमन्त
समीचीनं महोदय बुद्धिमान् पुरुषः समीचीनं हा
वर्तमान
हा समीचीनं महोदय अस्तु हा अग्रिमं
भविष्यतः
न न अग्रिम अग्रिमसुभाषितं महोदय
महाकार्यमद्य कुर्वीत पूर्वाणे चापराह्निकं नहि प्रतीक्षते मृत्युः कृतमद्य न वा कृतम् कार्यम् अद्य कुर्वीत तदपि विधिलिङ्गकारे प्रथमा एकवचनमस्ति महोदय प्रथमपुरुषे एकवचनं
हा कार्यम् अद्य कुर्वीत हा श्वः कार्यम् अद्य कुर्वीत पूर्वाह्णे च अपराह्णिकं नाम अपराह्णिकं कार्यम् अपराह्णिकं कार्यं यदस्ति तत् पूर्वाह्णे एव करोतु कुर्वीत हा श्वः यत् कार्यं श्वस्तनकार्यम् अद्य एव करोतु अपि तत्र अपराह्णिकं कार्यं यदस्ति तद् पूर्वाणि एव
कार्यम् अद्यकार्यं
किं महोदय
ह्यस्तनकार्यम् अद्य करणीयम्
इति तत्तु तद् लोके वयं सर्वे अनुसरामः किन्तु सत्यं सत्यं हा हा द्वितीयभागः तत्र नहि आमामां ह्यस्तनकार्यं श्वः कुर्मः
तत् सत्यम्
अस्तु
प्रतीक्षते महोदय
नहि प्रतीक्षते
तस्य
मृत्युः
किन्तु प्रतीक्षते इति क्रियापदमस्ति खलु लकारः किम् इति अहं
लट् लकारः एव तत्र न हि प्रतीक्षते कर्तृपदं किम्
ते इति अन्ते प्रायः
तत्र एकवारं पठित्वा तत्र अधोभागे तत्र वाक्यमपि
नहि प्रतीक्षते मृत्युः कृतमद्य न वा कृतं श्वः करणीयं कार्यं बुद्धिमान् अद्यैव कुर्यात् अपराह्णे करणीयं कार्यं पूर्वाह्णे एव कुर्यात् यतः मृत्युः अनेन एतत् कार्यं कृतमस्ति न वा इति न प्रतीक्षते
अनेन इत्युक्ते तत्र बुद्धिमता बुद्धिमता एतत् कार्यं कृतमस्ति न वा इति न प्रतीक्षते अतः तत्र शीघ्रस्य शुभस्य शीघ्रम् इति हा इति अस्तु समीचीनं तत्र अतः तत्र अस्तु तत्र कुर्वीत इति आसीत् तत्र कुर्यात् इति इदानीं रूपं स्वीकृतम् अस्तु समीचीनम् अस्तु धन्यवादः महोदय अग्रे नरेश् महोदय अग्रिमम्
आं महोदय योगि युञ्जीत सततमात्मानं रहसि स्थितः एकाकी यत चित्तात्म निराशीर परिग्रहः योगी युञ्जीत युञ्जीत सततमा आत्मानं रहसि स्थितः
तत्र सततम् आत्मानं रहसि स्थितः सततम् आत्मानं रहसि स्थितः
एकाकि यत् चित्तात्मा निराशीर परिग्रहः निराशिः निराशीः
निराशीः समीचीनं निराशीः अपरिग्रहः अपरिग्रहः इति हा तत्र कुत्र अस्ति तत्र विधिलिङ्गकारः तत्र
युञ्जीत
हा इति एव तत्र भुञ्जीत इति पूर्वं दृष्टवन्तः तात्कुर्वीत तत्र युञ्जीत हा तत्र युञ्जीत इति तत्र युज् धातुः हा युञ्जीत इति रूपं योगी युञ्जीत सततम् आत्मानं रहसि स्थितः तत्र हा प्रायशः तत्र रघुवीरानन्दस्वामी किञ्चित् वक्तुम् इच्छति वा तत्र अस्मिन् सन्दर्भे
महोदय
श्लोकस्य अर्थः कः इति
यः ज्ञातुमिच्छति तेन कृते तस्य कृते भगवतः उपदेशमस्ति योगी भवितुम् आरूढुम् इच्छति सः एकान्तप्रदेशे स्थितं भवेत् किन्तु यदा सः उपविशति तस्य मनः महोदय मनः अपि एकाकी भवेत् इत्युक्ते निराशीः परिग्रहः भवेत् असङ्गः भवेत्
असङ्गम् अस्तु अतः तत्र यत् चित्तात्मा यद् चित्तात्मा हा अपि निराशी अपरिग्रहः तदेव निराशिः इत्युक्ते तदेव अस्ति वा महोदय निराशी अपरिग्रहः
पदार्थः बहिः आशा तु मनसि
अस्तु अस्तु
यतचित्त आत्मा निराशीः अपरिग्रहः एकाकी इति इति तत्र प्रथमाविभक्तौ अस्ति योगी रहसि स्थितः आत्मानं सततं युञ्जीत इति 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 भवति योगी कीदृशयोगी योगी कीदृश कथं करणीयमिति यतचित्तात्मा निराशीः अपरिग्रहः एकाकी स्थितः रहसि रहस्य रहसि इत्युक्ते इन् ए सेक्लूडेड् प्लेस् इति रहसि आत्मानं सततं युञ्जीत
समीचीनं अतः तत्र सततं युञ्जीत इति अस्ति तदा तस्मात् प्राक् सर्वं तत्र विशेषणमस्ति योगी इति पदस्य
आमाम्
अस्तु
रहसि एकाकी स्थितः योगी इति अथवा अपरिग्रहः स्थितः योगी अपरिग्रह योगी निराशी योगी
निराशिता
योगी
बहु समीचीनं महोदय
धन्यवादः आशारहितः
अस्तु समीचीनं अपरिग्रह आशारहितः अस्तु समीचीनं महोदय अस्तु तर्हि तत्र अन्तिमं तत्र अस्ति तत्र अन्यं श्लोकमपि तत्र द्रक्ष्यामः तदनन्तरं तत्र किं तत्र एकं श्लोकं तदनन्तरं चाटुश्लोकः अपि अस्ति अस्तु अस्तु तर्हि तत्र केवलम् एकवारं पठामः तत्र लक्ष्मी भगिनी तत्र अग्रिमं श्लोकम् एकवारं पठति वा भगिनि
नात्युच्चित्रं नातिनीचं शैलाजिनकुशोत्तरं तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः नाति
तत्र प्रायः अग्रिमश्लोकम् अपि तत्र
कुशोत्तरम्
तत्र
तत्र एकाग्रं मनः कृत्वा
भगिनि तत्र एतत् एतस्य संख्या तत्र सम्यक्तया न दत्तम् एतत्तु 6.12 इति अस्ति भगिनि तत्र 6.11 6.12 तत्र एकम् एकं भागं स्वीकृतमस्ति तत्र अतः तत्र क्लेशः भवति, किन्तु तत्र केवलं तत्र अस्माकं कार्यम् अत्र किम् अस्ति, तत्र युञ्ज्यात् इति अस्ति खलु, तत्र
द्वितीयभागं कथं पदविभागं करणीयं न शैलाजिनकुशोत्तरं
तत्र शैलाजिन कुशोत्तरं तत्र अजिनम् अस्ति तस्य उपरि तत्र शैलाजिनं तत्र शैल अजिन कुश उत्तर इति
शैल अजिन कुश उत्तरं
सत्यं तत्र शैल अस्ति तदनन्तरं तत्र अजिनम्
अजिनं महोदय मृगस्य अपि च तैल अपि तस्य उपरि मृदु वस्त्रमस्ति
वस्त्रं अपि तत्र अधोभागे तु कुशः कुशः अस्ति अधोभागः तत्र भगिनी तत्र गीतासोपने प्रथमे भागे तत्र योगी
इति आसीत्
तत्र एतस्य श्लोकस्य एव तत्र
उपरि
अधः इति सत्यं महोदय उपरि अधः इति सन्दर्भे अतः एषः एव श्लोकः तत्र अस्तु तर्हि अतः तत्र प्रायशः अग्रिमे वर्गे एतद् पुनः एकवारं दृष्ट्वा अग्रेसरामः
श्लोकः
अस्तु तर्हि तत्र रघुनन्दं स्वामी भवानेव तत्र अन्ते वदति वा
ॐ पूर्णमद पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिः 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 हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ नमस्कारः धन्यवादः
नमस्कारः धन्यवादः महोदय